इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी अथ वार्ताः प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्यां मुख्यसचिवानां चतुर्थं राष्ट्रियसम्मेलनं सम्बोधयिष्यति। शुक्रवासरे आरब्धं त्रिदिवसीयं सम्मेलनं राज्यैः सह सहभागित्वेन समन्वितकार्याणां संरचना सामान्यविकासकार्यक्रमस्य विकासं कार्यान्वयने च केन्द्रितमस्ति। सम्मेलनस्य उद्देश्यं केन्द्रराज्यसर्वकारयोः च सहभागिताम् इतोप्यधिकं सुदृढं कर्तुं वर्तते, यत्र सहकारिसंघवादं वर्धयितुं द्रुततरवृद्धिं विकासं च प्राप्तुम् उत्तमसमन्वयं सुनिश्चेतुं कर्तुं च केन्द्रितमस्ति। मुख्यसचिवसम्मेलनं प्रधानमन्त्रिणः मोदिनः केन्द्रराज्ययोः मध्ये सुदृढसहकार्यस्य पोषणस्य दृष्ट्या चालिता प्रमुखा उपक्रमः अभवत्। चतुर्थं राष्ट्रियसम्मेलनम् उद्यमितां रोजगारं कौशलं च प्रवर्धयितुं जनसांख्यिकीय लाभांशस्य लाभग्रहणम् इत्यस्मिन् विषये केन्द्रितमस्ति, यत्र राज्यानां केन्द्रीय क्षेत्राणां च अनुसरणं कर्तुं सर्वोत्तमप्रथाः रणनीतयश्च समाविष्टाः सन्ति। श्रीलंकादेशस्य राष्ट्रपतिः अनुरा कुमार दिशानायके अद्य त्रिदिवसीयात्मकस्य भारतस्य आधिकारिकयात्रायां नवदिल्ल्याम् आगमिष्यति। श्रीलंकादेशस्य राष्ट्रपतिपदग्रहणानन्तरं तस्य प्रथमा भारतयात्रा अस्ति। श्रीदिशानायके मंगलवासरे स्वस्य यात्रायाः समापनं करिष्यति। राष्ट्रपति दिशानायके भारतयात्रायाः कारणात् द्वयोः देशयोः बहुपक्षीयं परस्परं लाभप्रदं च सहकार्यम् अधिकं सुदृढं कर्तुं दृश्यते। अस्मिन् भ्रमणावधौ राष्ट्रपतिः दिशानायके राष्ट्रपति द्रौपदी मुर्मूवर्यया प्रधानमन्त्रिणा नरेन्द्रमोदिना सहापि प्रमुखद्विपक्षीय विषयेषु चर्चां करिष्यति। श्रीदिशानायके दिल्ल्यां द्वयोः राष्ट्रयोः मध्ये निवेशं प्रवर्धनाय वाणिज्यिक सम्बन्धं वर्धयितुं व्यावसायिक कार्यक्रमे भागं गृह्णीयात्। तदतिरिक्तं सः बोधगयायाम् अपि गमिष्यति। उपराष्ट्रपतिः जगदीप धनखड़ः अद्य मध्यप्रदेशस्य ग्वालियर नगरस्य एकदिवसीय यात्रायां भविष्यति। स्वीय भ्रमणावधौ उपराष्ट्रपतिः जियो विज्ञान संग्रहालयस्य उद्घाटनं करिष्यति, तथा च मध्यप्रदेश ग्वालियरस्य जीवाजी विश्वविद्यालये श्रीमन्त जीवाजीराव सिन्धियायाः प्रतिमा अनावरण समारोहे मुख्यातिथिरूपेण अध्यक्षतां करिष्यति। भारत ऋतु विज्ञान विभागेन पूर्वानुमानं कृतं यत् आगामि दिनद्वयोः उत्तर पश्चिम मध्य भारतेषु पंजाब मध्यप्रदेशयोः केषुचित् भागेषु च शीतलहर्याः स्थितिः इतोप्यधिकं भविष्यति। वार्तावाहिन्यैः सह वार्तालापं कुर्वन्त्या आईएमडी वैज्ञानिका डॉ सोमा सेनरायः अवदत् यत् उत्तरभारते उत्तरपश्चिमीय वायुः दक्षिणपूर्ववायुः च प्रवहति, अनेन कारणेन दिल्ल्याः तापमाने एकतः द्वे डिग्री सेल्सियस पर्यन्तं न्यूनतायाः सम्भावना विद्यते। सा अवदत् यत् अस्य मासस्य 16-17 दिनांकयोः तापमाने वृद्धिः सम्भावना विद्यते। हॉकीति क्रीडायाम् अद्य ओमानदेशस्य मस्कट नगरे 24-2000 महिलाकनिष्ठ एशिया चषक क्रीडायाः निर्णायक क्रीडायां भारतं चीनदेशं सम्मुखीकरिष्यति। श्रोतारः संस्कृतजगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृतसाप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् अद्य आकाशवाहिनीतः भविष्यति इति वार्ताः।